अस्तु, स्वागतं सर्वेभ्यः, सर्वेभ्यः नमस्कारः, स्वागतमपि. एतावत्पर्यन्तम् अस्माभिः पदार्थः इत्युक्ते कः, सप्तपदार्थाः सन्ति, तेषु द्रव्यम् इति अन्यतमम् अस्ति, कति द्रव्याणि सन्ति, कति गुणाः सन्ति, द्रव्यविषये अपि तु गुणविषये अपि किञ्चित् अस्माभिः अतीतं. किञ्चित् पुनस्मरणरूपेण वयं पुनरवलोकनमपि कुर्मः. अस्तु, सदाशिव महोदय, सप्तपदार्थाः के के?
सप्तपदार्थाः द्रव्यं, गुण, कर्म, सामान्यं, विशेषः, समवायः, अभावः च.
समीचीनम् इति सप्तपदार्थाः सन्ति. अस्तु, ये यानि वस्तूनि सन्ति जगति तेषां विभागः सप्तपदार्थैः क्रियते. अस्तु, द्रव्यम् इत्युक्ते किम्? रमाभाई भगिनी, किमर्थं द्रव्यम् इति इत्यनेन अस्माकं पठना आरम्भः जातः?
द्रव्यम्, एकनिमिषं भगिनि.
आम् आम्, पश्यतु भगिनी, भवत्याः पुस्तकं वा टिप्पणीं.
जगति अनेकानि वस्तूनि सन्ति, तानि वस्तूनि द्रव्यम् इति उच्यते.
पुनः एवं वा, जगति कति कति विधानि वस्तूनि सन्ति जगति? कति विधानि?
अनेकविधानि सन्ति.
हा, परन्तु तस्य गणना का इत्युक्ते नैयायिकैः कीदृशः विभागः क्रियते, तेषां वस्तूनां विभागः कीदृशं क्रियते?
नवद्रव्याणि वा?
इदानीमेव सदाशिवमहोदयेन उक्तं खलु,
शब्दपदार्थाः भवान् उक्तवान्.
हा, सप्तपदार्थाः सन्ति,
शब्दपदार्थाः सन्ति.
हा,
प्रश्नं पुनः वदतु भगिनि.
तेषु द्रव्यम् इति प्रथमवस्तु स्वीकृतवन्तः खलु?
हा,
किमर्थं द्रव्यं? द्रव्यम् इत्युक्ते किं भवत्याः अवगमने? द्रव्यम् इत्युक्ते किं, किमर्थं द्रव्येण अस्माकं पाठः आरम्भः जातः? तस्मात् प्राक् केन आगतं नूतनतया?
द्रव्यं
भगिनि.
आं भगिनि,
भगिनी सम्यक् न जाना.
अस्तु अस्तु, पदार्थाः के के इति वदतु भगिनी प्रथमतया. रमाबाई भगिनी,
शब्दपदार्थाः वा?
आम् आम्,
शब्दपदार्थाः द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः.
शब्दपदार्थाः
सन्ति.
समीचीनं, तेषु प्रथमः पदार्थः कः? द्रव्यम् इति पदार्थः. इति पदार्थः, अस्तु समीचीनम्. इदानीं सीमा भगिनी सहायं करोति वा? द्रव्यम् इत्युक्ते किम्? सीमा भगिनी अस्ति वा? भगिनी न श्रूयते. हरि ओम्, अस्तु नीता भगिनी वदतु कृपया, द्रव्यम् इत्युक्ते किम्?
द्रव्यम् इत्युक्ते सप्तपदार्थेषु प्रथमः द्रव्यम्, अन्य अर्थः द्रव्यं कश्चन कश्चन विशेषमादाय सः विशेषः येषु वर्तते तेषां एकां संज्ञा कृत्वा न्यायिकः अथवा आचार्यैः पदार्थबोधनाय यत्नः कृतः.
समीचीनं समीचीनमेव. कश्चन विशेषं दृष्ट्वा तेषु द्रव्यनाम्ना निर्दिष्टः खलु. स च विशेषः कः? तस्य नाम किम्?
द्रव्यमिति.
विशेषः द्रव्ये वर्तते खलु?
आम्, विशेषः द्रव्ये वर्तते. अस्तु, तस्य विशेषः गुणः इति.
गुणः इति, समीचीनम्. अतः गुणं दृष्ट्वा यस्मिन् कस्मिन्नपि गुणः अस्ति स च पदार्थः द्रव्यम् इति संज्ञा क्रियते नैयायिकैः. अतः विशेषस्य विशेषः यत् द्रव्ये अस्ति, यः द्रव्ये अस्ति तस्य नाम गुणः इति उच्यते. प्रथमं गुणं दृष्ट्वा द्रव्यस्य नामकरणं कृतम्. अस्तु, समीचीनम्. अस्तु, तर्हि गुणाः, गुणविषये वयं चर्चयामः. कति गुणाः सन्ति? सीमा भगिनी, भवती अस्ति वा वर्गे?
आम् अस्मि, किञ्चित् विलम्बेन आगतवती, क्षम्यताम्.
अस्तु अस्तु, दृश्यते परन्तु उत्तरं न प्राप्तम्, अतः एव पुनर् पृष्टवती.
मम हेड्फोन्स् न सम्यक् कार्यं कृतवन्तः.
अस्तु, इदानीं श्रूयते वा?
मया श्रूयते. भवत्याः?
आम् 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 श्रूयते भगिनि. अस्तु, तर्हि इदानीं प्रश्नः अस्ति, कति गुणाः सन्ति?
चतुर्विंशतिगुणाः सन्ति.
समीचीनं. तस्मात् प्राक् द्रव्याणि कानि कानि इति भवती वदति वा?
द्रव्याणि
पृष्ठं दृष्ट्वा वदतु भगिनि, चिन्ता मास्तु.
क्षम्यतां,
प्रथमे पृष्ठे अस्ति.
मम समीपे इदानीं पुस्तकं नास्ति, क्षम्यताम्.
विद्यार्थी, PDF नास्ति वा पुरतः?
पुरतः नास्ति, इदानीम् ओपन् करोमि, किञ्चित् विलम्बेन आगतवती.
अस्तु 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 भगिनि, चिन्ता मास्तु. तर्हि पुष्पा भगिनी वदति वा कति द्रव्याणां विभागः कृपया, इत्युक्ते कानि द्रव्याणि सन्ति इति.
शब्दमस्ति वा भगिनि?
आमां श्रूयते भगिनि.
श्रूयते? बहु शब्दमस्ति वा?
आमामाम्. न न, अन्यः ध्वनिः नास्ति, सम्यक्तया श्रूयते एव.
गुणः, कर्म, द्रव्यः, पृथ्वी, आप, जल, पृथ्व्या तेजो.
अस्तु, कोष्टके अस्ति भगिनी, सुलभतया प्रथमे पृष्ठे अस्ति.
प्रथमे पृष्ठे गच्छामि. प्रथमपृष्ठं
जयन्ति भगिनी.
हा हा, पृथ्वी, जलं, वेदः, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः.
अस्तु, समीचीनं. तर्हि नवद्रव्याणि सन्ति, तानि पृथ्वी, जलं, तेजः, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः इत्यादीनि. अस्तु, तर्हि सीमा भगिनी वदतु कृपया, गुणाः कुत्र वर्तन्ते?
अन्यूट् कर्तुं समये किञ्चित् सम्यक् न श्रूयते, कृपया पुनः वदतु.
गुणाः गुणाः इति उक्तवन्तः वयं, गुणाः द्रव्येषु वर्तन्ते इति. अस्तु, तर्हि गुणानाम् आधारः किं कः अस्ति वा अधिकरणं किम्?
गुणानाम् अधिकरणं द्रव्यमस्ति.
समीचीनं. तर्हि अस्माकं वाक्यं किम् अस्ति? येन निरूप्यनिरूपकभावः दृश्यते.
अस्तु, गुणनिष्ठ आधेयता निरूपित अधिकरणताश्रितं द्रव्यम्.
समीचीनं. गुणनिष्ठ आधेयता निरूपित अधिकरणतावत् द्रव्यं वा अधिकरणतावान् अधिकरणतावत् द्रव्यं वा आश्रयः द्रव्यम् इति. अधिकरणताश्रयः द्रव्यम् इति उच्यते.
आश्रयं भवति भगिनी वा आश्रयः?
आश्रयः एव भवति, यतोहि आश्रयः इति नियतलिङ्ग लिङ्गकं पदमस्ति, तस्य परिवर्तनं न जायते.
अस्तु अस्तु, धन्यवादः.
सर्वथा आश्रयः एव पुल्लिङ्गे एव अस्ति.
अस्तु
अस्तु, अतः एव अधिकरणताश्रयः इति उच्यते. यद्यपि द्रव्यं नपुंसकलिङ्गे अस्ति, तथापि अधिकरणताश्रयः द्रव्यम् इत्येव उच्यते. अस्तु, तर्हि पुनः द्रव्यात् आरभ्य
अहमेव वदामि भगिनि.
आं भगिनि.
ओके, द्रव्यात् आरभ्य द्रव्यनिष्ठ अधिकरणता निरूपित अधेयता वान् गुणः.
समीचीनं, बहु समीचीनम्. अस्तु, अग्रे सदाशिव महोदय. गुणाः कति गुणाः सन्ति?
पुनः वदतु मां.
कति गुणाः सन्ति?
चतुर्विंशति गुणाः सन्ति.
ते के इति वदति वा?
आम्, रूप रस गन्ध स्पर्श संख्या परिमाण पृथत्वं संयोग विभाग परत्व अपरत्व गुरुत्व द्रवत्व स्नेह शब्द बुद्धि सुख दुख इच्छा द्वेष प्रयत्न धर्म अधर्म संस्कार चतुर्विंशति गुणाः सन्ति.
समीचीनं. तर्हि समस्तपदे ये गुणाः निर्दिश्यन्ते तेषाम् उल्लेखनं कृतवान् भवान्, सम्यक्. तर्हि पृथक्तया वदति वा, इत्युक्ते व्यस्तरूपेण गुणाः के के इति?
गुणाः रूपं रसं गन्धं स्पर्शं संख्या परिमाणं पृथत्वं संयोगं विभागं
रूपं रसः. रूपम् इति न पुंसकलिङ्गपदं, रसः इति पुंसि अस्ति.
गन्धः स्पर्शः संख्या परिमाणं पृथत्वं संयोगः विभागः परत्वम् अपरत्वं कुरुत्वं द्रवत्वं स्नेहत्वं
स्नेहः
शब्दः
बुद्धिः
सुखं दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः संस्कारः.
बहु समीचीनं महोदय. आहत्य चतुर्विंशतिगुणाः सन्ति, तेषाम् अधिकरणमस्ति द्रव्यम् इति. अस्तु, पुनः आम् पुटसङ्ख्या अस्ति. सप्तमे पुटे स्थूलाक्षरैः दीयते. अस्तु, अग्रे कर्माणां विषये अपि दृष्टम् अस्माभिः. रमाबाई भगिनी, कति कर्माणि सन्ति?
पञ्चकर्माणि सन्ति.
तानि कानि इति वदति वा?
अस्तु भगिनि, उत्क्षेपणम्, अपक्षेपणम्, कुञ्चनम्
आकुञ्चनम् इति
अकुञ्चनं, प्रसारणं, प्रसारणं, गमनम्. पञ्चकर्माणि सन्ति.
बहु समीचीनम्. अतः कर्मणः गतिं दृष्ट्वा, गतेः दिक् दृष्ट्वा, दिक् दृष्ट्वा पञ्चकर्माणि अत्र दीयन्ते. परन्तु केवलं पञ्चकर्माणि एव जगति सन्ति इति न, अवशिष्टानि कर्माणि गमनम् इत्यस्मिन् अन्तर्भूतानि सन्ति. अस्तु, समीचीनम्. अस्तु, इदानीं कर्माणाम् अधिकरणं किम् इति वदति वा नीता भगिनी? कर्म कुत्र वर्तते?
आं भगिनि, कर्म अपि द्रव्यमादाय अस्ति.
समीचीनं, द्रव्ये एव भवति कर्म अपि, खलु?
आम्.
हा, सर्वेषाम् अधिकरणं द्रव्यमेव. अतः एव द्रव्येन अस्माकं पाठः अपि आरभते. द्रव्यं सर्वेषाम् अधिकरणम् इति कृत्वा अस्माभिः दृष्टमपि. द्रव्येन एव अस्माकं पदार्थनिरूपणम् आरभते इति. अस्तु, समीचीनम्. अतः द्रव्यम् इति मूलम् अधिकरणम् अस्ति, सर्वेषाम् अधिकरणम् अस्ति, अधोभागे अस्ति. गुणाः सर्वे द्रव्ये वर्तन्ते, पुनः कर्माणि अपि द्रव्ये अपि वर्तन्ते. अस्तु, तर्हि अस्माकं चित्रे नवमे पृष्ठे चित्रे अस्माभिः दृष्टं यत् अन्याः पदार्थाः कुत्र कुत्र वर्तन्ते इति. तस्मिन् विषये पुष्पा भगिनी किञ्चित् वदति वा? भगिनि,
कुत्र भगिनि?
अस्माकं चित्रे बृहत् चित्रम् अस्ति खलु, तत्र नवमे पृष्ठे पेज् 9 इति. क्षम्यताम्, अष्टमे
पृष्ठे. अष्टमे पृष्ठे
पेज्
8.
चित्रात् किम् अवगम्यते? अन्याः पदार्थाः, अन्ये पदार्थाः कुत्र सन्ति? यथा गुणाः द्रव्ये वर्तन्ते, कर्माणि अपि द्रव्ये एव वर्तन्ते. अस्माकं तृतीयः पदार्थः वा चतुर्थः पदार्थः कः? सामान्यं कुत्र वर्तते?
समवाये तु अभावे.
पुनः भगिनि?
न, सामान्ये द्रव्यं गुणः कर्म सामान्यं विशेषः च नास्ति इत्यर्थः. हा, सामान्ये द्रव्यं गुणः कर्म सामान्यं विशेषः च नास्ति इति अर्थः. तत्तु समवायः अभावः सामान्ये वर्तते न?
पुनः भगिनि, सम्यक्तया न श्रुतम्.
समवायः अभावः सामान्ये वर्तते.
हा, समीचीनं. परन्तु मम प्रश्नः आसीत् सामान्यं कुत्र अस्ति इति.
सामान्यं तु कर्मे
प्रथमं किमस्ति? द्रव्यं खलु, सर्वेषाम् अधिकरणं द्रव्यं.
कर्मं सामान्यं द्रव्ये गुणे अपि तु कर्मणि अस्ति.
समीचीनं. तर्हि सामान्यं त्रिषु पदार्थेषु वर्तते. ते के? द्रव्यं पुनः कर्म. अतः सामान्यं द्रव्ये वर्तते अपि तु गुणे कर्मणि च वर्तते. अस्तु. पुनः सदाशिवमहोदय, विशेषः इति पदार्थः कुत्र कुत्र वर्तते? विशेषः इति अस्माकं पञ्चमः पदार्थः, तत् कुत्र अस्ति?
समवायः अभावः. विशेषु
विशेषः कुत्र अस्ति इति प्रश्नः. विशेषः कुत्र अस्ति?
विशेषः द्रव्यं गुणः कर्म सामान्यं विशेषः पञ्चम. द्रव्येषु पञ्चम पदार्थः.
पुनः
विशेषः
कुत्र अस्ति? विशेषः कुत्र अस्ति? यथा गुणः द्रव्ये अस्ति.
गुणः द्रव्यं विशेषः अपि द्रव्ये अस्ति.
तदेव खलु. तर्हि विशेषः द्रव्ये एव अस्ति.
द्रव्ये एव अस्ति,
अन्यत् कुत्रापि नास्ति विशेषः. अस्तु, अग्रे रमाबाई भगिनी, समवायः इति पदार्थः कुत्र अस्ति?
समवायः द्रव्ये अस्ति. द्रव्ये गुणे कर्मणि सामान्ये विशेष अस्ति.
बहु समीचीनं भगिनि. तर्हि समवायः इति पदार्थः प्रथमं तु द्रव्ये अस्ति, अन्यत्र अपि अस्ति गुणे कर्मणि सामान्ये अपि तु विशेषे. अस्तु, समीचीनम्. अभावः कुत्र अस्ति सीमा भगिनि?
अभावः सर्वेषु पदार्थेषु अस्ति. द्रव्ये गुणे कर्मणि सामान्ये विशेषे समवाये.
समीचीनं. स्वस्मिन् अपि अस्ति अभावः.
सत्यं, स्वस्मिन् अपि अस्ति अभावः.
तर्हि सप्तपदार्थेषु अस्ति अभावः इति. अस्तु, समीचीनम्. इदानीं स्पष्टं वा? अत्र प्रश्नः अस्ति वा?
एकः प्रश्नः अस्ति.
नीता भगिनी वदतु कृपया.
प्रथमकोष्टके कोष्टके द्रव्यम् इति कोष्टके द्रव्यं द्रव्ये अपि अस्ति वा?
आम् आम्, अवश्यं. द्रव्यं द्रव्ये अस्ति. द्रव्यं कुत्र वर्तते इति प्रश्ने कृते द्रव्यं द्रव्ये वर्तते.
अस्तु,
द्रव्यस्य अधिकरणं द्रव्यमेव.
अस्तु भगिनि.
यथा अस्माकम् उदाहरणे घटः भूतले अस्ति इति उदाहरणम्, ततः द्रव्यं द्रव्ये वर्तते इति.
अवगतम्.
अस्तु, समीचीनम्.
अभावः, अभावे षट् पदार्थाः न सन्ति, अभावः शब्दपदार्थेषु सन्ति.
आम्, समीचीनम्. अस्तु, तर्हि अस्माकं पठनम् आरभते इदानीं. सीमा भगिनी, भवत्याः प्रश्नः आसीत् गते वर्गे, पुनः तस्य अवलोकनं कृत्वा अग्रे सरेम. तथा पृष्ठसङ्ख्या अस्ति सप्त इति, तस्मात् आरम्भं करोतु कृपया.
Okay.
तत्र सर्वे
पृष्ठसङ्ख्या
सप्त इति.
यत्र गुणस्य विभजनम् अस्ति
न, तस्मात् तस्य अनन्तरम् अग्रे अस्ति अन्तिम अन्तिम अन्तिमा पङ्क्तिः अन्तिमा अस्ति तत्र सर्वे गुणादयः इति.
तथा च गुणादयः सर्वे द्रव्ये एव तिष्ठन्ति ततः भगिनि.
तस्मात् पूर्वं भगिनि,
तस्मात् पूर्वं चित्रम् अस्ति अष्ट,
तस्मात् पूर्वं तत्र सर्वे
प्राप्तं, क्षम्यताम्. तत्र सर्वे गुणादयः द्रव्ये वर्तन्ते इत्यस्य पूर्वोक्तस्य अयम् अर्थः विवक्षितः. तथा च गुणादयः सर्वे द्रव्ये एव तिष्ठन्ति इति न तद्वाक्यार्थः, किन्तु द्रव्ये अवश्यं तिष्ठन्ति, गुणादौ यथायथं तिष्ठन्ति इति अर्थः. द्रव्ये
तावत्पर्यन्तम् अस्तु. भवत्याः प्रश्नः आसीत्, तत् समीचीनतया न उत्तरमासीत् मम उत्तरं, मम दोषः एव. तत्र गुणादयः सर्वे द्रव्ये एव तिष्ठन्ति इति न तद्वाक्यार्थः इत्युक्ते अस्माकं प्रथमम् अधिकरणं, मूल अधिकरणम् अस्ति द्रव्यं, तस्मिन् गुणाः अवश्यं वर्तन्ते, तस्मिन् गुणाः आधेयरूपेण वर्तन्ते. परन्तु गुणादयः इत्युक्ते गुणकर्म सामान्यं विशेषः समवायः अभावः इत्यादयः द्रव्ये एव तिष्ठन्ति इति न अर्थः. इत्युक्ते अन्यस्मिन् अपि वर्तन्ते, कुत्र कुत्र वर्तन्ते?
अन्यं गुणे अस्ति, कर्मणि अस्ति, समवायः गुणे अस्ति, कर्मणि अस्ति, सामान्य अस्ति, एवम्?
आम् एवं भगिनि. तर्हि तत् उत्तरम् अस्ति यत् गुणद्रव्यं तु द्रव्ये भवति, गुणाः अपि द्रव्ये एव सन्ति, कर्म अपि द्रव्ये एव वर्तते, परन्तु सामान्यं तु गुणे कर्मणि अपि वर्तते. इत्युक्ते सामान्यस्य अधिकरणं गुण वा कर्म भवितुम् अर्हति. पुनः विशेषः इति द्रव्ये एव भवति, तत्तु द्रव्ये एव भवति. समवायः तु द्रव्ये अवश्यं भवति, परन्तु समवायस्य अधिकरणं गुणः कर्म सामान्यम् अपि तु सामान्यमेव खलु, विशेषः विशेषः. अतः द्रव्यम् अतिरिच्य चत्वारि अधिकरणानि अपि भवितुम् अर्हन्ति समवायविषये. पुनः अभावविषये
सप्तेषु पदार्थेषु
वर्तते इति वार्ता.
अस्तु अस्तु, धन्यवादः.
तदेव अस्तु, अग्रे पठति भगिनि, पठतु भगिनि. द्रव्ये वर्तन्ते,
ओके, द्रव्ये वर्तन्ते इत्यत्र पूर्वदर्शितचित्रैः अर्थवर्णेन च इदम् आदायति. सामान्यं द्रव्ये गुणे कर्मणि त्रिषु वर्तते. तत्र सर्वेषु द्रव्येषु विद्यमानं गुणरूपं पदार्थम् आदाय द्रव्यसमुदायः यथा निरूपितः द्वितीये पृष्ठे, तथा गुणत्वसामान्यम् आदाय गुणसमुदायः, कर्मत्वसामान्यम् आदाय कर्मसमुदायः निरूपयितुं शक्यते. पूर्वस्मिन् चित्रे द्रव्ये ये सन्ति तत् दत्तं, यथा सामान्यं त्रिषु पदार्थेषु अस्ति, द्रव्ये गुणे कर्मणि च. पश्चात् गुणरूपं पदार्थं स्वीकृत्य सः केषु द्रव्येषु कः कः गुणः अस्ति तत् द्वितीये पृष्ठे निरूपितम् आसीत्. तस्मिन् पृष्ठे गुणसमुदायः गुणत्व सामान्यम् आदाय दत्तम्. पश्चात् कर्मत्व यस्मिन् अस्ति, येषु येषु अस्ति, तत् स्वीकृत्य कर्मसमुदायः निरूपणं कर्तुं शक्नुमः.
समीचीनम्. इत्युक्ते अत्र यथा अस्माभिः पूर्वं दृष्टं, द्रव्यसमुदायः इत्युक्ते किम् इति वयं दृष्टवन्तः. द्रव्यसमुदायः इत्युक्ते द्रव्यसमूहः, यस्मिन् कस्मिन्नपि गुणः वर्तते तानि सर्वाणि द्रव्याणि इति नामकरणं कृतानि अस्माभिः. इत्युक्ते द्रव्याणि कानि? पृथ्वी, जलं, तेजः, वायुः इत्यादीनि खलु. तर्हि पृथ्व्यां गन्धः अस्ति, गन्धः इति गुणः, जले शैत्यम् इति गुणः, तेजसि औष्ण्यम् इति गुणः इत्यादयः. तर्हि सर्वान् गुणान् दृष्ट्वा यस्मिन् कस्मिन्नपि गुणः अस्ति तेषां समूहरूपेण तेषां नामकरणं द्रव्यं, द्रव्यसमुदायः इति वयं वक्तुं शक्नुमः. पृथ्वी भवतु वा जलं भवतु वा तेजः भवतु, परन्तु द्रव्यं प्रथमं द्रव्यमेव खलु. पृथ्वी इति द्रव्यं, जलम् इति द्रव्यम्. अतः पृथ्वीतः मनपर्यन्तं यानि द्रव्याणि सन्ति तेषां समूहरूपेण तेषु गुणः अवश्यं वर्तते. अवगतम्?
आम् अवगतम्. अतः किन्तु अस्य द्रव्यत्वं न दत्तम् अस्ति.
पश्यामः भगिनि. इदानीं पुनः गुणसमुदायः, प्रथमं द्रव्यसमुदायः किम् इति वयं दृष्टवन्तः. इदानीं गुणसमुदायः इत्युक्ते किम्? यथा द्रव्याणां समूहः द्रव्यसमुदायः इति उच्यते, तथैव गुणसमुदायः अपि अस्ति. इत्युक्ते यस्मिन् कस्मिन्नपि गुणत्वम् अस्ति तेषां समूहः गुणसमुदायः इति उच्यते. इत्युक्ते एकस्मिन् गन्धः अस्ति, अन्यस्मिन् स्पर्शः अस्ति, अपरस्मिन् शब्दः अस्ति चेत् वस्तूनां समूहः किं भवति?
द्रव्यं,
द्रव्यसमुदायः इति उच्यते. तर्हि ये गुणाः सन्ति, गन्धः वा शैत्यं वा शब्दः वा औष्ण्यं, तेषां समूहरूपेण तेषां नामकरणं किम्? गुणसमुदायः इति. परन्तु गुणसमुदायः इति वयं कथं निर्णेतुं शक्नुमः? गन्धे गन्धत्वम् अस्ति वा गुणत्वम् इति किमपि अस्ति, किमपि धर्मः अस्ति गुणत्वम् इति. शैत्ये अपि गुणत्वम् अस्ति, औष्ण्ये गुणत्वं, स्पर्शे गुणत्वम्. तर्हि एतत् सर्वं गुणत्वं, भिन्नभिन्नगुणत्वानि दृष्ट्वा गुणसमुदायः इति उच्यते. स्पष्टम्?
अस्पष्टं भगिनि, किन्तु द्रव्यत्वं किमर्थं न दत्तं? द्रव्यसमुदाये द्रव्यत्वम् अस्ति
इति न दत्तं, यतोहि अस्माकं द्रव्यस्य निरूपणं कथं क्रियते पूर्वं?
हा, गुण आधार
गुणं दृष्ट्वा खलु द्रव्यत्वेन गुणस्य अभिज्ञानं न क्रियते परन्तु तस्मिन् गुणः अस्ति इति कृत्वा तस्य नामकरणं द्रव्यम् आसीत् अत एव द्रव्यसमुदायः गुणेन क्रियते परन्तु गुणसमुदायः गुणत्वेन क्रियते अत्र पुनः कर्मसमुदायः इत्युक्ते भिन्नानि कर्माणि सन्ति यथा भगिन्या उक्तम् उत्क्षेपणम् अपक्षेपणम् आकुञ्चनं प्रसारणम् एतानि सर्वाणि कर्मसमुदायः इति उच्यते परन्तु प्रत्येकं कर्मणि कर्मत्वम् इति धर्मः अस्ति यस्मिन् कस्मिन्नपि कर्मत्वम् अस्ति सः कर्मसमुदाये अस्ति सः कर्मसमुदाये अन्तर्भूतः भवति सम्यक् अस्तु अस्तु तर्हि सामान्यम् इति अस्ति अत्र सामान्यम् इत्युक्ते जातिः जातिः सामान्यं समानार्थकमेव जातिः इति सर्वे जानन्ति खलु अग्रे पठेम न्यायभाषया जातिः इत्युक्ते किम् इति परन्तु अस्माकं लौकिक अवगमनं किम् अस्ति जातिः इत्युक्ते कश्चन केनचित् अंशेन तस्य अभिज्ञानं भवति इति जातिः इति वदामः अग्रिमे परिच्छेदे उदाहरणमपि दत्तमस्ति तत् पठित्वा स्पष्टं भवति केवलं स्मरतु यत् जातिः सामान्यम् इत्युक्ते जातिः इति जातिः तु द्रव्ये गुणे कर्मणि च वर्तते त्रिषु वर्तते जातिः इत्युक्ते द्रव्यत्वजातिः गुणत्वजातिः कर्मत्वजातिः इति उच्यते अस्तु समीचीनम् अग्रे सदाशिव महोदय पठति वा महोदय सामान्यपदार्थनिरूपणम् इति आरभ्य
सामान्यपदार्थनिरूपणं तस्य सामान्यस्य त्रीणि अधिक अधिकरणानि निरूप्य आदेयं सामान्यं निर्दिशति चित्रे सामान्ये तथा सामान्ये द्रव्यं गुणः कर्म विशेषः नास्ति परन्तु समवायः अभावः अस्ति तस्य सामान्यस्य त्रीणि अधिकरणानि निरूप्य आदेयं सामान्यं निर्दिशति इति
इत्युक्ते अत्र तु केवलं सामान्यस्य अधिकरणं किम् इति उच्यते सामान्यस्य आदेयाः
सामान्यस्य अधिकरणं गुणः कर्म द्रव्यं
समीचीनं केवलं त्रीणि अधिकरणानि एव सामान्यस्य इदानीमेव दृष्टं खलु द्रव्यं गुणः कर्म इति
द्रव्यं गुणः कर्म सो परमपरं चेति द्विविधं सामान्यमिति परमपरं चेति द्विविधं सामान्यमिति यद्यपि स्वयं ग्रन्थकारः
प्रथमं तस्य
द्विविधं सामान्यं द्विविधं भवति परम् अपरं
समीचीनं परम् अपरम् इति सामान्यं द्विविधं भवति समीचीनं महोदय अग्रे
यद्यपि स्वयं ग्रन्थकारः उपरिष्टात् सामान्यलक्षणं वदिष्यति तथापि सम्प्रदायरीत्या सामान्यसाधनाय यतितव्यं प्रयत्नं करोति इति तथापि सम्प्रदायरीत्या सामान्यसाधनाय यतितव्यम् इत्थं च जातिसाधनमाहुः बालं माता गवाक्षात् कञ्चन प्राणिनं प्रदर्श्य इयं गौः इति वदति ततः तमेव बालमादाय पिता उद्यानं गच्छति. मार्गे पूर्वदृष्टसदृशकारं प्राणिनं दृष्ट्वा बालः इयं गौः इति वक्ति. सो बालः
वाक्यशः पठित्वा प्रतिपादयतु महोदय.
तत्र अग्रे पठ अग्रे पठामि.
यद्यपि स्वयं
ग्रन्थकारः उपरिष्टात् सामान्यलक्षणं वदिष्यति. सामान्यलक्षणम् इति उच्यते.
किम् अस्ति तत् सामान्यस्य लक्षणं? किं लक्षणवाक्यम् इत्युक्ते येन सामान्यस्य निरूपणं जातम्.
सामान्यस्य लक्षणं गुणः कर्म सामान्य अधिकरणता निरूपित
भवान् सत्यमेव वदति, परन्तु अत्र लक्षणवाक्यम् इत्युक्ते यत् मूलग्रन्थे लभ्यते. मूलग्रन्थे तर्कसङ्ग्रहे मूलग्रन्थे परमपरं चेति द्विविधं सामान्यम् इति लक्षणवाक्यम् अस्ति.
लक्षणवाक्यं परमपरं चेति द्विविधं सामान्यम् इति लक्षणवाक्यं. तथापि सम्प्रदायरीत्या सामान्यसाधनाय यतितव्यं लौकिकप्रकरणेन अवगन्तुं प्रयत्नं कुर्मः. इत्थं च जातिसाधनमाहुः
इति सामान्यम् इत्युक्ते इति वक्तुं वयम् अग्रे
प्रयत्नं कुर्मः.
तस्य प्रवृत्तिः कुर्मः प्रवृत्तिं कुर्मः
जाति जाति इति सदृशगुणानां दृष्ट्वा अवगन्तुं शक्यते इति.
पठतु उदाहरणं किम् इति वदतु महोदय.
बालं माता गवाक्षात् कञ्चन प्राणिना. बालं माता बालं गवाक्षात् कञ्चन प्राणिनं प्रदर्श्य इयं गौः इति वदति. गौही न दृष्टवती, बट् गौ सदृशप्राणिनं दृष्ट्वा इयं गौः इति वदति.
एवं वा
गवाक्षात्
गामेव प्रदर्शयति खलु.
गामेव प्रदर्शयति गावाक्षात् कञ्चन प्राणिनं प्रदर्श्य
गौः इत्युक्ते किं?
गौः धेनुः.
गौः इति प्रथमविभक्त्यान्तपदं, तत्र द्वितीयविभक्त्यान्तपदं गाम् इति.
गवाक्षात्
गवाक्षात् इत्युक्ते
पञ्चमी न
वातायनमस्ति खलु, विण्डो इति गृहे अस्ति वातायनं. तस्मात् माता प्रदर्शयति, तस्य शिशुं प्रदर्शयति. तत्र पश्यतु गाम् अस्ति इति.
ततः तमेव बालमादाय पिता उद्यानं गच्छति. अतः बालेन सह पिता उद्यानं गच्छति. तत्र मार्गे गौः गां दृष्ट्वा बालः इयं गौः इति वक्तुं शक्यते.
न केवलं वक्तुं शक्यते, वदति खलु.
वदति इति वदति
मार्गे. पुनः प्रथमं तु मात्रा निर्दिष्टा धेनुः खलु, तदनन्तरं पित्रा निर्दिष्टा, पित्रा सूचिता अस्ति धेनुः. तत्र मार्गे पूर्वदृष्टसदृश आकारम् इति विभजनेन प्राप्तं. पूर्वदृष्ट इत्युक्ते पूर्वमपि दृष्टं बालेन काम् इति. तदनन्तरं पूर्वदृष्टसदृशाकारम् इत्युक्ते यथा पूर्वं दृष्टं तथैव इदानीमपि दृश्यते, सदृशं गां दृश्यते, यद्यपि समानं गां नास्ति तथैव गां प्रातःकाले यद्दृष्टं समानगां नास्ति, अन्यत्र अस्ति अन्या धेनुः. तां दृष्ट्वा पुनः बालः वदति इयं गौः इति. कथं ज्ञायते?
सदृशकारं
समीचीनं. सदृश आकारम्, आकारम् इत्युक्ते रूपं, रूपम् इत्युक्ते अत्र गुणः इति न, तत् आकारं, शेप् फार्म् इति दृष्ट्वा बालेन बालः वदति यत् अयम् इयं गौः इति. अस्तु, स्पष्टं वा? प्रश्नः अस्ति वा?
प्रश्नः नाम पृष्टम्.
अस्तु,
तत्र
एकनिमिषम्, अन्य कोऽपि कृपया. रमाबाई भगिनी पठति वा?
अस्तु भगिनि, पठामि वा?
आम् अवश्यं भगिनि.
तत्र पूर्वं या गोः तेन दृष्टा सा अन्या, इयं च अन्या. सा कृष्णा आसीत्, इयं तु श्वेता. अतः उभयोः रूपमपि भिन्नम्. उभयोरपि शृङ्गपादादयः अवयवाः अपि परस्परं भिन्नाः. तर्हि किं दृष्ट्वा सः बालः गोः इयम् इति सम्यक् ज्ञातवान्?
तदेव
बालः पूर्वं माता बालम् एकं गोः दर्शितवती. सा गोः अन्यगोः पिता उद्यानं.
तस्य रूपं किं? मात्रा दृष्टा,
मात्रा दर्शित गोः कृष्णवर्णः आसीत्, कृष्णवर्णः आसीत्. पिता दर्शित गोः पिता सह गत्वा बालकः श्वेतवर्ण गोः दर्शितवान्, द्वयोः गोः मध्ये रूपं भिन्न भिन्नः अस्ति.
रूपम् इत्युक्ते किं
बहिनि?
रूपम् इत्युक्ते किम् अत्र?
रूपम् अवयवानि.
अत्र रूपं भिन्नम् इति उक्तं भवत्या खलु?
अस्तु,
तर्हि रूपम् इत्युक्ते किम्?
रूपम्
अत्र रूपम् इत्युक्ते किं? फार्म् इति वा?
रूपं वर्णः अस्ति.
वर्णः,
वर्णः,
समीचीनं.
वर्णः अस्ति. उभयोरपि शृङ्गपादादयः अवयवाः अपि परस्परं भिन्नाः.
कथं भिन्नाः, कथं भिद्यते? श्वेतधेनोः शृङ्गपादादयः कथं भिद्यन्ते
कृष्णः नास्ति वा? वर्णः
वर्णेन एव भिद्यते खलु?
शृङ्गपादादयः अवयवाः अपि भिन्नाः अस्ति. शृङ्ग इति उच्यते हान्, आङ्ग्लभाषया हान् इति पादः इत्यादयः अवयवाः परस्परं भिन्नः अस्ति. तदा अपि बालः बालः इयम् अपि गोः इति उक्तवान् इति सः ज्ञातवान्.
समीचीनम्.
अग्रे
भवति. समीचीनम् इत्युक्ते बालं कमपि दृष्ट्वा कमपि परिलक्ष्य अभिज्ञातुं शक्तवान् यत् इयमपि गौः इति. यद्यपि वर्णेन भिद्यते द्वितीयधेनुः प्रथमधेन्वः भिद्यते तथापि बालेन अभिज्ञायते यत् इयमपि गौः इति. इत्युक्ते बालेन कश्चन विशेषं कश्चन विशेषः परिलक्षितः अस्ति येन अभिज्ञानं जायते. तस्य विशेषस्य नाम एव जातिः इति. अग्रे आम् प्रश्नः अस्ति वा?
सम्यक् अवगतम्.
अस्तु, समीचीनं. रामनाथमहोदय प्रयत्नं करोति वा, पठति वा भवान्?
आम्
आम् तदेव इति आरभ्य महोदय. तदेव
ओके वन् सेकेण्ड्. तदेव शास्त्रकारैः सामान्यम् इत्युच्यते. समानानां धर्मः सामान्यम्. एकविधा वय वा विजन्यानि यानि गोशरीराणि तत्र सर्वत्र एकः अनुगतः धर्मः वर्तते.
वदतु महोदय, किम् अवगच्छति?
तदेव शास्त्रकारैः सामान्यम् इत्युच्यते, अर्थात्
किं सामान्यं, किं दृष्ट्वा बालेन अवगतं?
गौही भिन्नभिन्नगौही रूपं दृष्ट्वा सामान्यतया गौही अर्थात् किं किं लक्षणम् इति उच्यते.
इत्युक्ते प्रथमे गवी किं यत्किमपि दृष्टवान् तदेव दृष्टवान् द्वितीये गवी अपि. यद्यपि वर्णः भिन्नः आसीत् तथापि चत्वारः पादाः आसन् द्वितीय गवी अपि चत्वारः पादाः शृङ्गाः शृङ्गौ अपि तु देह आकारः अपि समानः एव खलु. तद् दृष्ट्वा
एवमेव
गुणः इति न उच्यते, परन्तु कश्चन स्वभावः वर्तते गोषु यद् दृष्ट्वा एताः सर्वाः गावः इति वक्तुं शक्यते केनापि खलु. इत्युक्ते कश्चन आम् अग्रे अस्ति समानानां सामान्यम् इत्युक्ते किं
सामान्यम्
इत्युक्ते सामान्यं वा जातिः इति यत् या अस्ति सः धर्मस्य नाम समानानां धर्मः इति उच्यते. यत्र कुत्रापि धर्मः समानम् एव दृश्यते तत्र जातिः इति नाम्ना निर्दिश्यते. समाना जातिः वर्तते, एषु सर्वेषु समाना जातिः एव वर्तते इति उच्यन्ते खलु. अस्तु, समीचीनं महोदय. अत्र एकविध अवयवादिजन्यानि यानि गोशरीराणि इति अस्ति, तत् अवगम्यते वा?
अवगच्छामि, परन्तु किमर्थं संस्कृतेन उत्तरं वदतु इति न आगतम्।
अस्तु, चिन्ता मास्तु, प्रयत्नं करोतु, उचितं वदामि। अन्य कोऽपि प्रयत्नं करोति वा? तत्र तस्य अर्थः कः? एकविध अवयवादिजन्यानि,
एकविध स्वभावः, सर्वे गोषु वा?
अत्र अवयवाः के भगिनि?
स्वभावः वा?
अवयवः इत्युक्ते
बोडि
बोडि पार्ट्स्।
आम् आम् आम्,
ते तु समानाः खलु?
आम् आम्,
तत्र
एकविध अवयवानि आम्
इत्युक्ते सर्वेषु गोषु पादाः सन्ति, चत्वारः पादाः सन्ति, समानाः एव दृश्यन्ते, पुनः शृङ्गाः सन्ति, देहः एकविधेन भवति, इत्युक्ते अवयवात् जन्यं शरीरम् इति उच्यते। इत्युक्ते शरीरे किं किम् अस्ति? कस्मिंश्चित् शरीरे, गोशरीरे किं किम् अस्ति?
शृङ्गः, कर्णः, पादः,
शासना इत्युक्ते तत्र मुखस्य अधोभागे अस्ति खलु?
आम् 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 आम्,
शिथिलम् अस्ति, सहस्ना इति उच्यते। अतः बहवः अवयवाः सन्ति गोशरीरे, तेषाम् अवयवानां विद्यमानम् एकस्मिन् शरीरे भवति। इत्युक्ते शरीरं कथम् उत्पद्यते? अवयवानां समूहेन उत्पद्यते खलु? सर्वान् अवयवान् मिलित्वा शरीरं प्रसूयते खलु? अतः एव अत्र अस्ति एकविध अवयवादिजन्यानि शरीराणि, इत्युक्ते अवयवैः जन्यं शरीरं, गोशरीरम् इति अस्ति अत्र अर्थः।
तत्र तथैव अन्यप्राणिः अपि अस्ति किल भगिनि?
परन्तु दर्शनेन भिन्नः अस्ति खलु? अश्वस्य अवयवाः भिन्ना दृश्यन्ते, धेनोः भिन्ना दृश्यन्ते खलु?
दृश्यन्ते,
आहत्य देहः अपि, तस्य आकारः अपि भिन्नः अस्ति। तत्र सर्वत्र एकः अनुगतः धर्मः वर्तते इति भवान् वदति वा, रामनाथन् महोदय? तत्र वाक्यमस्ति, एकविध अवयवादिजन्यानि यानि गोशरीराणि, तत्र सर्वत्र एकः अनुगतः धर्मः वर्तते इति। अनुगतः इत्यस्य अग्रिमं वाक्यमपि पठतु महोदय, स्पष्टं भवति।
सर्वत्र विद्यमानः इत्यर्थः,
इदानीं वदतु महोदय। कुत्र कुत्र विद्यमानः धर्मः, धर्मं दृष्ट्वा, कुत्र कुत्र विद्यमानं धर्मं दृष्ट्वा बालेन अवगतं यत् इयं गौः इति?
अवयवानि दृष्ट्वा,
कश्चन धर्मं दृष्ट्वा खलु धर्मम् इत्युक्ते कञ्चन स्वभावं दृष्ट्वा
भगिनि उक्तम् आकारम् अर्थात्
आकारम् आकारः इति उच्यते परन्तु न्यायभाषया केवलम् आकारः एव न प्रमुखः अंशः धर्मः इति उच्यते धर्मः इत्युक्ते आकारः इत्युक्ते फार्म् इति खलु यत् साक्षात् दृश्यते तत् आकारः सः आकारः सम्यक् प्रश्नः एव परन्तु आकारः धर्मः इति न धर्मः धर्मं वयं द्रष्टुं न शक्नुमः साक्षात् धर्मस्य स्पर्शः न क्रियते अस्माभिः परन्तु धर्मेण एव आकारः अपि भिद्यते वस्तुषु यत् वर्तते स्वभावरूपेण तस्य नाम धर्मः इति अस्ति यथा पुस्तकम् इति उच्यते विद्याधरी इति पुस्तकम् अन्यत् पुस्तकमपि अस्ति मम विज्ञानपुस्तकं महाभारतग्रन्थः इति अस्ति तदपि पुस्तकमेव यद्यपि आकारेण भिद्यते आकारः अपि भिद्यते खलु कश्चन काञ्चन भेदाः अपि सन्ति केचन भेदाः अपि सन्ति समानत्वम् अपि वर्तते अतः सामान्यम् आदाय जातिः वर्तते सर्वेषु पुस्तकेषु पुस्तकत्वम् इति जातिः वर्तते इति उच्यते अत्र केवलम् आकारः एव न कारणं खलु मम रामायणग्रन्थः तु बृहान् अस्ति तस्य वर्णः अपि भिन्नः अस्ति प्रायः नीलवर्णस्य ग्रन्थः अस्ति मम विद्याधरीपुस्तकं तु भिन्नः दृश्यते
परन्तु द्वयं पुस्तकमेव
आम् इत्युक्ते कश्चन केनचित् अंशेन वयं वक्तुं शक्नुमः यत् विद्याधरी अपि पुस्तकं रामायणग्रन्थः अपि पुस्तकम् इति इत्युक्ते तस्मिन् रामायणे रामायणग्रन्थे अपि तु विद्याधरी पुस्तके कश्चन अंशाः वर्तन्ते यैः वयं वक्तुं शक्नुमः यत् पुस्तकम् इति इत्युक्ते समानधर्मः वर्तन्ते इति
क्वालिटि इति स्वीकृतं
महोदय
क्वालिटि इस् समानपदमेव वा
क्वालिटि इति वा न न महोदय जातिः इति उच्यते
जातिः अर्थात् अवगमनार्थं
अवगमनार्थं न्यायभाषया भिन्नरूपेण उच्यते क्वालिटि इति न भवति परन्तु अस्माकम् अवगमनार्थं क्वालिटि इति वक्तुं शक्यते इत्युक्ते क्वालिटि इत्युक्ते गुणः इति स्ट्रिक्ट्लि स्पीकिङ्ग् परन्तु गुणः तु भिन्नः अस्ति
धर्मः फार्म् उक्तं
न न इदानीमेव उक्तं खलु आकारः तु यत्किमपि दृश्यते तत्तु आकारः इति उच्यते रूपम् इत्युक्ते वर्णः न्यायभाषया अस्तु प्रश्नः अस्ति वा अन्यप्रश्नः अस्ति
वा
अनुगतः इत्युक्ते सर्वत्र वर्तते इति अस्तु नीता भगिनी पठति वा
आं भगिनि अनुगतः इत्यस्य सर्वत्र विद्यमानः इत्यर्थः एवं च गवाक्षात् बालः एवं च गवाक्षात् बालः गोशरीरं गोत्वसामान्यं च उभयं पश्यति मात्रा इयं गौः इत्युक्तौ गोशब्दस्य गोत्वशरीरयोः च सम्बन्धमपि जानाति ततः उद्यानमार्गे पुनः नूतनां गां तत्र गोत्वं च पश्यति गोशब्दं स्मृत्वा गौः इयमिति च वक्ति पुनः पठामि भगिनि अनुगतः इत्यस्य सर्वत्र विद्यमानः इत्यर्थः सर्वत्र यः स्वभावः अस्ति तम् अनुगतः इति उच्यते इति अहं मन्ये
किं सर्वत्र वर्तते येन
धर्मः
धर्मः
कश्चन धर्मः सर्वत्र अनुगतः वर्तते अनुगतः इत्यस्य सर्वत्र विद्यमानः इति अर्थः इत्युक्ते धर्मः सर्वत्र विद्यमानः इति अर्थः
इत्युक्ते अस्मिन् उदाहरणे सर्वेषु गोषु समानधर्मः एव वर्तते अतः अनुगतः धर्मः गोषु वा पुस्तकेषु इति
अवगतं भगिनि एवं च गावाक्षात् बालः एवं च गवाक्षात् बालः गोशरीरं गोत्वसामान्यं च उभयं पश्यति बालः गोशरीरं गोत्वसामान्यं च उभयं पश्यति बालः प्रथमतया दृष्ट धेनुम् अपि अनन्तरं किम् अनन्तरं दृष्ट गामपि तस्य भेदः पश्यति
अत्र भेदः पश्यति वा तत्र
सामान्यं धर्म समानधर्म धर्मं पश्यति अत्र
यस्मिन् क्षणे बालः द्वितीयं गां पश्यति तदा तस्य मनसि गोत्वसामान्यमेव स्फुरति खलु
आं सामान्यधर्मं पश्यति
अतः द्वितीयगोशरीरं दृष्ट्वा बालः गोत्वं बालेन गोत्वं ज्ञायते खलु
आम् मात्रा इयं गौः इति युक्तौ गोशब्दस्य गोत्वशरीरयोः च सम्बन्धमपि जानाति यदा माता प्रथमं धेनुं दृष्ट्वा इयं गौः इति उच्यते अनन्तरमपि सामान्यधर्मः कुत्र अस्ति इति दृष्ट्वा बालकः अपि अत्र इयमपि गौः इति
प्रथमं किं पश्यति बालः
गो
कृष्णगां पश्यति खलु
आम्
कृष्णवर्णगां पश्यति तथा माता वदति यत् इयं गौः इति तर्हि तस्य मनसि गो शब्दः अपि तु गोत्वम् अनयोः सम्बन्धः तस्य मनसि संस्थाप्यते इत्युक्ते गो गां दृष्ट्वा बालः किम् अवगच्छति अस्तु एतत् सर्वं क्षणेन एव भवति खलु, इत्युक्ते सोपानेन सह न अवगच्छति. मनसः कार्यं किं, क्षणेन ज्ञानं भवति खलु तस्य मनसि, अस्तु इयं गौः इति वदनेन, इति श्रवणेन बालः अवगच्छति यत् अस्तु प्राणिः एतादृशः भवति चेत् तस्य नाम गौः इति. तस्य अतः नाम, अनन्तरं नामेन सह आकारः, तयोः सम्बन्धः अपि बालः अवगच्छति खलु. गौः इति माता पुनः वदति चेत् बालः अवगन्तुं शक्नोति, हा पुनः गां पश्यामि इति. इत्युक्ते गौः इति पदस्य श्रवणेन बालः अवगच्छति यत् गौः इत्युक्ते एतादृशः भवेत् इति. अतः तस्य मनसि गोज्ञानम् अपि तु गोशब्दः, एतयोः सम्बन्धम् अपि तस्य मनसि सम्यक्तया उपविशति खलु. इत्युक्ते पदस्य शक्तिः अस्ति इति अर्थः. प्रत्येकं पदस्य कश्चन शक्तिः वर्तते. शाक्तं पदम् इति उच्यते. इत्युक्ते पदेन अर्थः बोध्यते. अग्रे भगिनि.
आं भगिनि. ततः उद्यमानमार्गे उद्यानमार्गे पुनः नूतनां गां तत्र गोत्वं च पश्यति. पुनः बालः उद्यानमार्गे एकं नूतनं गां दृष्ट्वा एतदपि, एतत् प्राणी अपि गो अपि जानाति. गोशब्दं स्मृत्वा गौः इयम् इति च वक्ति. गोशब्दं स्मृत्वा तस्य लक्षणमपि अथवा तस्य धर्मः अपि तस्य मनसि
यः सम्बन्धः वर्तते, इत्युक्ते गोशब्दः अपि तु गोत्वम् अनयोः यः सम्बन्धः वर्तते, पुनः तम् आदाय बालः वदति इयं गौः गौः इति. तदेव
अवगतं भगिनि.
अस्तु, प्रश्नः अस्ति वा
भगिनि? अत्र धर्मः इति पदस्य अर्थम् अहम् इदानीम् अवगतम्, परन्तु एतस्य पङ्क्तिः आरम्भे भवती उक्तवती सामान्यम् इत्युक्ते जातिः इति. अत्र इदानीं जातिः धर्मः तस्य भेदः कः?
सम्यक् प्रश्नः एव भगिनि. धर्मः इत्युक्ते एकाकी वर्तते खलु. पुस्तकम् इति विद्याधरी अहं पश्यामि, विद्याधर्याः धर्मः कः? पुस्तकत्वम् इति धर्मः.
अस्तु,
परन्तु विद्याधरी अस्ति, रामायणग्रन्थः अस्ति, विज्ञानपुस्तकम् अस्ति,
महाभारते अपि
बहूनि पुस्तकानि सन्ति मम पार्श्वे. तर्हि सर्वेषां धर्मः पुस्तकत्वम् इति कृत्वा तेषां जातिः पुस्तकत्वम्. जातिः इत्युक्ते सर्वत्र वर्तते खलु, परन्तु धर्मः एकस्मिन् एव वर्तते. तत्र धर्मः समानः चेत् जातिः इति उच्यते. उदाहरणत्वेन मम पुरतः सङ्गणकम् अस्ति, सङ्गणके सङ्गणकत्वम् इति धर्मः. खलु पुस्तके पुस्तकत्वम् इति धर्मः परन्तु बहवः बहूनि सङ्गणकानि सन्ति चेत् तेषां जातिः का
सङ्गणकत्वं
सङ्गणकत्वम् इति जातिः इति तत्र उच्यते
अस्तु
यत्र धर्मः तु वर्तते एव सर्वस्मिन् धर्मः वर्तते परन्तु धर्मः सर्वत्र सर्वदा समानम् इति समानः इति वक्तुं न शक्यते खलु यत्र कुत्रापि समानाः धर्माः सन्ति तथा एव जातिः इति उच्यते
अस्तु
सम्यक्
अवगतम् अवगतं भगिनि
अस्तु अग्रे पुष्पा भगिनी पठति वा
भगिनि एकः प्रश्नः अस्ति प्रष्टुं शक्नोमि इदानीं
अवश्यम् अवश्यं भगिनि
अत्र दत्तमस्ति नूतनां गां तत्र गोत्वं च पश्यति अत्र गोत्वं च पश्यति इत्युक्ते सामान्यं पश्यति वा धर्मं पश्यति अथवा द्वयमपि समानमेव
भवती किं चिन्तयति
अहं चिन्तयामि गोत्वम् इत्युक्ते सामान्यम् अस्ति
सामान्यम् इति खलु अत्र तादृशं किं गोत्वम् इति धर्मः प्रथमं परन्तु प्रातःकाले समानं धर्मं दृष्टवान् बालः अतः द्वितीयं वारम् अपि समानं धर्मं दृष्ट्वा अस्तु इयं गौः इति सः वक्तुं शक्नोति अतः येन तस्य ज्ञानम् उदेति गौः इति ज्ञानम् उदेति तस्य नाम एव सामान्यम् इति
अस्तु प्रश्नः यतः उदेति गोत्वं जाति सामान्यं द्रष्टुं न शक्नुमः किन्तु अत्र
सामान्यम् आकारेण द्रष्टुं शक्नुमः खलु इत्युक्ते पुस्तकत्वं वयं द्रष्टुं शक्नुमः वा
न पुस्तकं
पुस्तकत्वम् अत्र अस्ति तत्र अस्ति इत्युक्ते तस्य साक्षात् दर्शनं न भवति परन्तु पुस्तकं वयं द्रष्टुं शक्नुमः खलु पुस्तके कश्चन स्वभावः वर्तते यस्य नाम पुस्तकत्वम् इति परन्तु तस्य साक्षात् दर्शनं न भवति खलु
सत्यमस्ति तत् अहम् अवगच्छामि किन्तु गोत्वं च पश्यति तस्मिन् पश्यति पदस्य कथं
अत्र तु पश्यति किं पश्यति इत्युक्ते गोत्वम् इति धर्मं दृष्ट्वा इत्युक्ते आम् साक्षात् दर्शनम् इत्युक्ते अहं किं वदामि तस्य स्पर्शनं न कर्तुं शक्यते पुस्तकत्वम् इति धर्मः दृश्यते परन्तु तस्य पुस्तकमेव स्पर्शं शक्नोमि न तु पुस्तकत्वं खलु अतः एव स्वभावः वा धर्मः इति उच्यते परन्तु अत्र सः गां पश्यति गवी गोत्वं पश्यति अपि इत्युक्ते गवी कश्चन अंशाः वर्तन्ते येन सः अवगच्छति यत् इयमपि गौः इति
ओके तर्हि इत्थं वक्तुं शक्नुमः न वा गोत्वं वयं द्रष्टुं शक्नुमः किन्तु गोत्वस्य स्पर्शनं न भवति
आम् आं भगिनि तथा वक्तुं शक्यते अवश्यम्
ओके धन्यवादः
आम् अन्ततो गत्वा दर्शनेन एव ज्ञानं जायते खलु अतः दर्शनं कर्तुं शक्यते अवश्यं परन्तु मम किं मम विवक्षा आसीत् यत् साक्षात् आकारं द्रष्टुं शक्नुमः तस्मिन् धर्मः वर्तते इति.
सत्यं, गोत्वं स्वातन्त्र्येण द्रष्टुं न शक्नुमः,
पृथक्तया न द्रष्टुं शक्नुमः.
अस्तु अस्तु अस्तु, धन्यवादः.
आं भगिनि, पुष्पा भगिनी पठति वा?
गां दृष्ट्वा एव गोत्वं पश्यामः.
आम् आं भगिनि, अग्रे भगिनी पठति वा?
अग्रे, हा, एकत्र अनेकजातीनां वृत्तित्वनिरूपण.
भगिनी, अन्तिमपङ्क्तिः अस्ति, तथा च
तल्लक्षण न
न तथा च
तथा च तत् वक्तुम् अहं. तथा च सामान्यपदार्थास्वीकारे अपूर्व गोव्यक्तेः ज्ञानं न स्यात्. अतः सामान्यम् अवश्यं स्वीकार्यं. तत् एव शास्त्रे जातिः इति व्यवह्रियते. तल्लक्षणविचारः सङ्ग्रहानुसारेण एव भविष्यति. तथा च सामान्यपदार्थस्वीकारे अपूर्व गोव्यक्तेः ज्ञानं न स्यात्. सामान्यपदार्थम् अनुसृत्य अपूर्वगोव्यक्तेः ज्ञानं न शक्नुमः.
सामान्यपदार्थस्य स्वीकारे इति उक्तवती भवती खलु, परन्तु अत्र अस्मिन् पदे अस्वीकारः इति अस्ति. सामान्यपदार्थास्वीकारे इत्युक्ते सामान्यम् इति पदार्थः नास्ति चेत् किं भवति?
तत् गोचरं नास्ति इति. गां सामान्यः तु जातिः, सामान्यपदार्थः तु जातिः. तत् जातिः अस्वीकारे अपूर्वगोव्यक्तेः ज्ञानं, तत्तु गोव्य तत्तु तत् गौः इति ज्ञानं न शक्नु न स्यात्
भवति खलु,
न भवति न भवति.
अपूर्व इत्युक्ते नूतन
नूतन
न्यायशास्त्रे न्यायभाषया अपूर्वः इति उच्यते. इत्युक्ते जातिः इति पदार्थः न वर्तते चेत् नूतनवस्तु यस्मिन् तादृशधर्मः वर्तते तस्य ज्ञानं न भवति. यमपि गौः इति ज्ञानं न जायते.
सामान्य पदार्थ अस्वीकारे अतः सामान्यम् अवश्यं स्वीकार्यं. तत्तु सामान्यं जातिं तु अवश्यं स्वीकुर्मः. तदेव शास्त्रे जातिः इति व्यवह्रियते. तत् सामान्यम् एव शास्त्रे, तत्तु न्यायशास्त्रे जातिः इति व्यवह्रियते. मने तु व्यवहारं क्रियते.
समीचीनम् इति व्यवहारः क्रियते.
तल्लक्षणविचारः सङ्ग्रहानुसारेण एव भविष्यति.
अग्रे अग्रे इदानीं तु लौकिकरूपेण सामान्यम् इत्युक्ते किम् इति दृष्टम् अस्माभिः. इदानीं न्यायशास्त्रे कथं तस्य लक्षणं भवति इति पश्यामः.
सङ्ग्रहानुसारे एव भविष्यति. अस्तु
अस्तु
अस्तु.
अग्रे सीमा भगिनी
एकत्र अनेक जातीनां वृत्तित्वनिरूपणं तद्विभागं सम्प्रति आह परम् अपरं चेति द्विविधं सामान्यम् इति दर्शितरीत्या सामान्यं सिद्धं तत्र इदम् उक्तं भवति पुस्तके पुस्तकत्वं सामान्यम् अस्ति तथैव पुस्तकं वक्ष्यमाणरीत्या पृथिवी अतः तत्र पृथ्वीत्वं जातिः वर्तते पुस्तके पूर्वोक्तरीत्या गुणः अस्ति इति तत् द्रव्यम् अपि पुस्तके पूर्वोक्तरीत्या गुणः अस्ति इति तद् द्रव्यमपि अतः तत्र द्रव्यत्वं जातिः अपि अस्ति इदानीं अनेकजातीनां वृत्तित्वम् इत्युक्ते लक्षणं भगिनि लक्षणं वृत्तित्वं
वृत्तित्वम् इत्युक्ते आदेयः अत्र वर्तते इत्युक्ते अस्मिन् आदेयः इति आदेयः अस्ति इति अर्थः
ओके 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 अत्र अनेकजातीनां आधारता अधेयता भवती उक्तवती अधेयता कुत्र अस्ति तत् तस्य निरूपणं भवति एवं
सामान्यं यत् पूर्वमपि दृष्टवन्तः सामान्यं कुत्र कुत्र अस्ति गुणे कर्मणि अपि तु द्रव्ये खलु
द्रव्ये
इत्युक्ते आदेयरूपेण एव वर्तते खलु गुणे गुणः आधारः तत्र सामान्यम् इति आदेयः पुनः कर्म इति आधारः तत्र सामान्यम् इति आदेयः पुनः द्रव्यम् इति अधिकरणं तत्र सामान्यम् इति आदेयः खलु अग्रे
तद्विभागं सम्प्रति आह सामान्यस्य सामान्यं विभजते परं च अपरं तद् न अवगच्छामि दर्शितरीत्या सामान्यं सिद्धं
यथा पूर्वम् अस्माभिः दृष्टम् उदाहरणे
अस्तु
गोः उदाहरणे दर्शितरीत्या कथं कथं लेखकः दर्शितवान् सामान्यम् इत्युक्ते किम् इति गोः उदाहरणं स्वीकृत्य खलु
ओके गोः उदाहरणेन दर्शितरीत्या सामान्यं सिद्धं
सामान्यम् इति किम् इति सम्यक्तया अवगतम् अस्माभिः
आम् आम् तत्र इदम् उक्तं भवति इतोपि सामान्यस्य अवगमनार्थे उदाहरणानि दत्तानि पुस्तके पुस्तकं यत् अस्ति तत् सामान्यमस्ति
पुस्तकत्वम् इति सामान्यं
पुस्तकत्वं यदस्ति तत् सामान्यमस्ति तथैव पृथिव्यां पृथ्वीत्वम् अस्ति पुस्तके गुणः अस्ति अपि च द्रव्यत्वम् अपि अस्ति एवम् अतः अतः द्रव्ये द्रव्यत्वं सर्वेषु द्रव्येषु द्रव्यत्वं जातिः अस्ति एवं गुणः अपि अस्ति
इत्युक्ते कति कति जातयः सन्ति अस्मिन् उदाहरणे कति जातयः सन्ति
जाति पृथि द्रव्यत्वे कति जातिः सन्ति?
न न, अस्मिन् परिच्छेदे उदाहरणे
उदाहरणे
पुस्तकम् इति उदाहरणं स्वीकृतं खलु?
आम्,
तस्मिन् कति जातयः सन्ति?
पुस्तके एकः एव जातिः अस्ति. न, क्षम्यतां, पुस्तके पुस्तकत्वम् अस्ति, एवं द्रव्यत्वमपि अस्ति,
अपि तु पृथ्वीत्वम् अस्ति खलु?
पृथ्वीत्वमपि आम् अस्तु. जातित्रयं जातित्रयमस्ति, पुस्तके पुस्तकत्वं, पृथ्वीत्वं, द्रव्यत्वं.
तिस्रः जातयः सन्ति पुस्तके. कथं? पुस्तकम् उपरिष्टात् पश्यामश्चेत् पुस्तकम् इति द्रव्यं खलु? पुस्तकं द्रव्यं किमर्थं? यतोहि पुस्तके कश्चन गुणः वर्तते, अतः तत्तु द्रव्यं. द्रव्ये किं भवति, कीदृशधर्मः भवति द्रव्ये?
द्रव्यत्वं.
द्रव्यत्वम् इति धर्मः. अस्तु,
अस्तु.
विशेषतया एतत्तु द्रव्यं वयं जानीमः, विशेषतया कीदृशं द्रव्यम् अस्ति? पार्थिवद्रव्यम् अस्ति खलु? पृथ्वी इति द्रव्यं वा पार्थिवद्रव्यं? तर्हि पार्थिवद्रव्ये कीदृशधर्मः वर्तते?
पृथ्वीत्वम्.
पृथ्वीत्वम् इति धर्मः. अस्तु, तर्हि प्रथमं तु द्रव्यत्वं, द्वितीयं तु पृथ्वीत्वम् इति धर्मः. इतोपि विशेषतया एतद् द्रव्यं तु पुस्तकम् अस्ति, पुस्तके कीदृशधर्मः वर्तते?
पुस्तकत्वम्.
पुस्तकत्वम् इति धर्मः. आहत्य तिस्रः जातयः सन्ति. द्रव्यत्वं, पृथ्वीत्वं, पुस्तकत्वम्. अवश्यं वदतु महोदय.
पुस्तके पृथ्वीत्वं कथम् आगच्छति?
पुस्तकम् इति पार्थिवद्रव्यं, यतोहि तस्मिन् गन्धः वर्तते.
पुस्तके गन्धः वर्तते?
आम्. पुस्तकं जलं न भवितुमर्हति खलु? तत्र द्रव्य पट्टिकां कृपया पश्यतु. द्रव्येषु पुस्तकं कस्मिन् विभागे भवितुमर्हति? जलं नास्ति, तेजः अपि न अस्ति, वायुः नास्ति, आकाशः नास्ति. एतत् सर्वम् अपाकृत्य पृथ्वी एव भवितुमर्हति खलु? इदानीं तु अस्माकं किं न्यूनज्ञानमेव वर्तते द्रव्यविषये, परन्तु अग्रे वयं द्रष्टुं शक्नुमः कथं पुस्तकं द्रव्यविभागे भवति इति.
अस्तु अस्तु
अस्तु. इदानीं समयः अस्ति वा, नो चेत् समापयामः वा?
मम समयः अस्ति भगिनि.
अन्य कोऽपि
समयः नास्ति? समाप्तं
कर्तुं शक्नुमः वा? अस्तु, किञ्चित् चिन्ता मास्तु, अग्रिमे सप्ताहे अनुवर्तामहे. अस्तु, तर्हि प्रश्नः अस्ति चेत् कृपया पृच्छन्तु. अस्तु, इदानीं गृहपाठरूपेण यत्किमपि द्रव्यं स्वीकृत्य कति जातयः सन्ति तस्मिन् इति चिन्तनं कृत्वा आगच्छन्तु कृपया. कानिचन उदाहरणानि स्वीकृत्य अस्मिन् विषये किञ्चित् चिन्तनं कृत्वा आगच्छन्तु.
अस्तु भगिनि.
स्पष्टम्?
आं भगिनि.
अस्तु अस्तु, तर्हि समापयामः.
धन्यवादः भगिनि.
आम्
नमस्कारः भगिनि.
आम्.